सुन्दरतनुं श्वेताति श्वेततेजसं श्वेततेजस्तरस्तं च श्वेतदीपं पतिं भजे श्वेतदीपं पतिं भजे श्वेत श्वेत धर्म प्रियं श्वेतं श्वेत श्वेतधर्मैकपालकम् श्वेतधर्मप्रियं श्वेतम् श्वेतधर्मैकपालकम् श्वेतभक्त्युपलभ्यं च श्वेतदीपं पतिं भजे श्वेतदीपं पतिं भजे श्वेताष्टकमिदं नित्यं वासुदेवस्य यः पठे तन्नाममालापाठस्य फलं स प्राप्नुयान्नरः फलं स प्राप्नुयान्नरः फलं स प्राप्नुयान्नरः इति श्रीशतानन्दमुनिविरचिते श्वेताष्टकं समाप्तम्।